नमः सर्वेभ्यः। अद्य शिक्षावर्गस्य ऊनविंशः पाठः, नवम्बर् मासस्य तृतीयः दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ ममोपाहि गुरो। गतवर्गे वयं सन्धिप्रकरणं समापितवन्तः, यत्र विसर्गसन्धेः अन्तिमः प्रभेदः, विसर्गस्य सकारः कुत्र भवति इति ज्ञातवन्तः, तस्य अभ्यासान् अपि कृतवन्तः। काव्यांशेषु काव्यप्रभेदाः के भवन्ति, पञ्चमहाकाव्यानि कानि, तेषु शिशुपालवधस्य तत्कर्तुः माघस्य च कः विशेषः इति ज्ञात्वा, काव्यकथाभागे नारदस्य आगमनं मन्त्रालोचनम् इति भागद्वयं पठितवन्तः। तत्र विसर्गसन्धेः एकं पुनरवलोकनं कुर्मः। यत्र विसर्गः भवति तस्य प्राधान्येन पञ्च व्यत्ययाः भवन्ति, पञ्चविधाः सन्धयः तत्र उच्यन्ते। तत्र उत्वम् एकं, लोपः द्वितीयः, रेफः तृतीयः, सकारः चतुर्थः, जिह्वामूलीयः अथवा उपध्वानीयः अथवा तैः सह विसर्ग एव भवति इति पञ्चमः। एते पञ्च प्रमुखाः भवन्ति। तत्र उत्वं, लोपः, रेफः इत्येतत्त्रयं स्वरे मृदुव्यञ्जने वा परतः भवति। सो सकारः, जिह्वामूलीयः, उपध्वानीयश्च कर्कषव्यञ्जने परे भवति। अतः विसर्गसन्धिषु द्वेधा विभागः अस्ति, स्वरे मृदुव्यञ्जने परतः कार्याणि, कर्कषव्यञ्जने परतः कार्याणि इति। तत्र यदा विसर्गात् परतः स्वरः मृदुव्यञ्जनं वा भवति, तत्र पूर्ववर्णः अपि द्रष्टव्यः भवति। तत्र किं किं भवति इति पश्यामः चेत्, पूर्ववर्णः अपि द्रष्टव्यः। अह विसर्गात् पूर्वं ह्रस्व अकारः, अग्रे ह्रस्व अकारः अथवा मृदुव्यञ्जनम् अस्ति चेत् तत्र विसर्गस्य उकारः भवति, उत्वं भवति, पुनः गुणसन्धिः, पूर्वरूपम् इत्यादि भवति, ओकारः श्रूयते, बालोपि, बालः अपि, बालोपि, बालः वा, बालो वा इति। ह्रस्वकारात् परस्य विसर्गस्य ह्रस्वकारे मृदुव्यञ्जने वा परे उत्वं भवति, ह्रस्वकारात् परस्य विसर्गस्य अन्येषु स्वरेषु परेषु, अकारं विहाय, ह्रस्वकारं विहाय अन्येषु स्वरेषु परेषु लोपः भवति, बालः एव, बाल एव इति। सः ह्रस्वकारस्य विषयः। विसर्गात् पूर्वं दीर्घः अस्ति चेत् आकारः, आकारात् परस्य विसर्गस्य स्वरे मृदुव्यञ्जने वा परे लोपः भवति, बालाः गच्छन्ति, बाला गच्छन्ति, बाला अपि, बाला एव इत्यादि सर्वत्र भवति। विसर्गात् पूर्वम् अन्ये स्वराः, ह्रस्वः अकारः अपि न, दीर्घः अपि न, अन्ये स्वराः सन्ति चेत् तस्य रेफः भवति स्वरे मृदुव्यञ्जने परे। सो बालैः ऐकारः अस्ति विसर्गात् पूर्वं, सो एव इति स्वरे परे बालैरेव इति भवति। एतत्तु सामान्यतः नियमः। पूर्वम् अ आ अन्ये स्वराः इति त्रेधा ऑप्शन भवति, तद्दृष्ट्वा कार्यं करणीयम्। सः एषः इति द्वयोः पदयोः विशिष्य वर्णे परे यः कोऽपि वर्णः स्वरः वा व्यञ्जनं वा ह्रस्वम् अकारं विहाय यः कोऽपि स्वरः अथवा यत्किमपि व्यञ्जनम् अस्ति चेत् लोपः भवति। स एव, स बालः, स तत्र इत्यादि बहूनि उदाहरणानि दृष्टानि। एतत् सर्वमपि कदा भवति? विसर्गस्य स्वरे मृदुव्यञ्जने परे। सो उत्त्वम्, उत्त्वं तु ह्रस्वकारात् परस्य विसर्गस्य अकारे मृदुव्यञ्जने परे। लोपः, ह्रस्वकारात् परस्य विसर्गस्य अन्येषु स्वरेषु परेषु अथवा दीर्घ आकारात् परस्य विसर्गस्य सर्वेषु स्वरेषु मृदुव्यञ्जनेषु परेषु अथवा सः एषः इत्येतयोः लोपः भवति। रेफः, विसर्गात् पूर्वम् अकारं विहाय यः कोऽपि स्वरः अस्ति चेत् अग्रे स्वरे मृदुव्यञ्जने वा परे रेफः भवति इति त्रयः सन्धयः स्वरे मृदुव्यञ्जने परतः भवन्ति। द्वितीयां शाखाम् आगच्छामः, कर्कषव्यञ्जनं। तत्र विसर्गात् पूर्वं किमस्ति इत्यस्य अपेक्षा नास्ति। सो विसर्गः अस्ति चेत् अलम्। सो तत्र किं किं कार्यं भवति इति पश्यामः। सो कर्कषव्यञ्जनेषु क ख एतयोः परयोः जिह्वामूलीयः अथवा विसर्गः भवति। सो रामः कः? रामः खनति इति, अथवा रामः कः? रामः खनति इति विसर्गः भवति। च छ श एतेषु परेषु विसर्गस्य सकारः भवति, तस्य सकारस्य श्चुत्वेन शकारः भवति। सो रामश्च, रामश्छात्रः, रामश्येते इति उदाहरणानि। सो ट ठ ष एतेषु परेषु अपि विसर्गस्य सकारः भवति, तस्य ष्टुत्वेन षकारः भवति। सो रामष्टीकते, धनुष्ठङ्कारः, रामषष्ठः इत्यादिषु भवति। त थ स एतेषु परेषु विसर्गस्य सकारः भवति। सो सकारस्य अन्यत् किमपि परिवर्तनं न भवति, सकारः एव श्रूयते। रामस्तत्र, रामस्सह इत्यादीनि उदाहरणानि। प फ एतयोः परयोः उपध्मानीयः विसर्गः भवतः। रामः पठति, अन्तःपुरम् इति उपध्मानीयः, अथवा रामः पठति अन्तःपुरम् इति विसर्गः, द्वयमपि भवति। एवञ्च कर्कषव्यञ्जने परे सन्धिद्वयम्। सो क ख प फ एतयोः परयोः जिह्वामूलीय उपध्वानीयौ भवतः, अन्येषु परेषु विसर्गस्य सकारः भवति इति नियमः। So this is not the entire this thing of visarga sandhi. Sarvopi visarga sandhihi atra astiva iti chet nasti. Itopi kechana sandhayaha santi. Atra karkasha vyanjane pare kvachit visargasya sakaraha shakarova bhavati. Kakha eteshu pareshu, papha eteshu pareshu api कदाचित् भवति, यथा नमस्करोति, तिरस्करोति इत्यादिषु सकारः भवति, अन्यत्र कुत्रचित् भवति। सो ते नियमाः अस्मिन् स्तरे न अधीयन्ते, यतोहि ते विशिष्टाः नियमाः। सामान्यतः सूत्रवशादेव ते ज्ञातुं शक्यन्ते. प्रतिसूत्रं किञ्चित् विशिष्टं भवति, सो तदाश्रित्य ज्ञानमेव शक्यते. अतः अत्र तेषां स्पर्शः नास्ति. अन्यदपि अस्ति, कदाचित् रेफस्य लोपः भवति. यत्र पदे साक्षात् रेफः भवति तत्र कदाचित् लोपः भवति इत्यादि. सो सामान्यतः एते पञ्चविसर्गसन्धयः भवन्ति. सो यु विल् नो मोर् एस् यु कीप् स्टडीङ्ग् फार् फर्दर् दिस् वन्. अत्र कश्चित् प्रश्नः अस्ति. गतवर्षे गतवर्गे पुनर् इत्यस्य विषये उक्तं, यत्र साक्षात् रेफः अस्ति अतः तस्य रेफः भवति, एवम् उकारः लोपः इत्यादि न भवति इति. तादृशम् अन्यद् अव्ययम् अस्ति वा इति. अव्ययं तु पुनर् इत्येव. अन्यानि कानिचन पदानि सन्ति. गिर् शब्दः, गीः गिरौ गिरः, पुर् शब्दः, पूः पुरौ पुरः इत्येवम् अन्ये केचन शब्दाः सन्ति. सामान्यः शब्दः तु पुनर् इत्येव. अतः पुनश्शब्दस्य एतद् भवति, किं कर्कशव्यञ्जने परे यानि कार्याणि तानि भवन्ति. ओके, सो पुनश्च, पुनश्टीकते, पुनस्तत्र, पुनः कः, पुनः पठति. सो एतानि कार्याणि पुनर् इत्यस्यापि भवन्ति. सो अत्र उपरि यानि कार्याणि विशिष्य तत्र पुनर् इत्यत्र अकारः अस्ति, ह्रस्व अकारः, अतः एतद्द्वयम् उत्वम् अथवा लोपः. सो अकारस्य पुनः इत्यस्य अकारस्य एतत् कार्यं न भवति. सो उत्वं लोपः न भवति. सो तदपेक्षया अत्र अये इदं रेफः भवति. सो पुनरपि, पुनरिव, सर्वत्रापि लेपः एव भवति, पुनर्गच्छति, पुनरेव इत्यादिषु. तावदेव पुनःशब्दस्य विशेषः. तादृशाः अन्ये शब्दाः इत्युक्ते तदेव गिर्, पुनर् इत्यादि. गिर् पुर् इत्येते शब्दाः बहु न्यूनाः चेत् संस्कृतवाङ्मये तादृशाः शब्दाः अत्यन्तं न्यूनाः. जिह्वामूलीयस्य सिम्बल् नास्ति वा? अस्ति, गतवर्गे दर्शितमिति भावयामि. एवं कञ्चित् उपयुज्यते, केचन अस्य उपयोगं कुर्वन्ति. जिह्वामूलीयस्य, उपध्मानीयस्य च विसर्गस्य स्थाने एवं उपयुञ्जते. किन्तु टैपिङ्ग् मध्ये अथवा प्रिण्टिङ्ग् मध्ये एतत् सामान्यतः न उपलभ्यते. बहु कष्टं. मोस्ट् आफ् द फोन्ट्स् डु नाट् हाव् इट् एण्ड् इवन् इन् प्रिण्ट् यु डोण्ट् फैण्ड् इट्. अतः सामान्यतः विसर्गः एव विसर्गस्यैव मुद्रणं क्रियते. उच्चारणसमये वयं दृष्ट्वा वयं तत् जिह्वामूलीयत्वेन, उपध्वानीयत्वेन वा उच्चारणं कुर्मः. अन्ये केऽपि प्रश्नाः सन्ति वा? रामानुजं महोदय, प्रश्नः अस्ति वा?
अस्ति, नमस्ते. पितः प्लस् वन्दे, इस् इट् पितर् वन्दे?
पितः, हे पितः, पितर् वन्दे. ससजुशोरुः खरवस्वानयोगस्य पितर् वन्दे इत्येव. मातर् नमामि अनिशम् इत्यस्ति किल, तत्र पश्यामि. प्रक्रियायां कश्चित् विशेषः स्यात्, अहं दृष्ट्वा वदामि. तत्र सम्बुद्धिः मातर्नमामि त्वमेव इति कनकधारास्तोत्रे अपि अस्ति. अतः तत्र एतन्न भवति. तत्र कः विशेषः इति अहं दृष्ट्वा वदामि.
ओके.
जिह्वामूलीयस्य उपध्वानीयस्य च उच्चारणं समानं वा इति. समानं न सदृशम् अर्धविसर्गसदृशः. सो रामः कः? रामः पठति इति. किन्तु तत्र अग्रिमवर्णस्य केचन धर्माः अपि स्वीक्रियन्ते. अतः पुनः पठति इत्युक्ते अप् इति पकारस्य कश्चित् अंशः भवति. अतः उपध्मानीयः अपि ओष्ठ्यः, लेबियल् इत्युच्यते. यथा पकारस्य उच्चारणम् ओष्ठाभ्यां क्रियते, एवम् उपध्मानीयस्य अपि उच्चारणे ओष्ठयोः प्रयोगः क्रियते. जिह्वामूलीयस्य तु ककारस्य धर्मः. रामः कः इति कण्ठ्यः वर्णः. सिमिलर् बट् नाट् द सेम्. So, paraspāram. So, as I said, yes. So, namaskaroti, paraspāram, tiraskaroti, dhanushkapalaha, ityadini santi, yatra jihvamūliyasya upadhmaniyasya cha badhaha bhavati. So, tatapekshaya anyani karyani uchyante. So, there are karyas which happen, which overrule the jihvamūliya and upadhmaniya, which we have not studied at this stage. अत्र तत् रूल्, वेन् देर् आर् सो मेनी एक्सेप्शन्स् वै नाट् क्रियेट् अ रूल्? देर् आर् रूल्स्. द थिङ्ग् इस् वि आर् नाट् स्टडीङ्ग् आल् द रूल्स् हियर्. अत्र सर्वं पाणिनीय अष्टाध्याय्यां सन्ति सूत्राणि, सर्वस्यापि सूत्राणि सन्ति. किन्तु आरम्भिकस्तरे तत् सर्वं नापेक्षितम् इति सर्वं नोच्यते तावदेव. सो सर्वस्यापि इदानीं मया यद्यदुक्तं तस्य सर्वस्यापि सूत्रमस्ति. वस्तुतः तत्र इदानीं तत् पृष्टं केषुचित् स्थलेषु तत् न भवति तत्सर्वं बहु स्पष्टमस्ति. वयं यदि सूत्रम् आश्रित्य पश्यामः तत्र एवं न भवति. दिस् थिङ्ग् इस् वेरि क्लियर्. अत्र यदा अनेन क्रमेण वयम् अध्ययनं कुर्मः तत्र एवं कन्फ्यूजन् अवसरः भवति. सूत्रक्रमेण यदा वयं पठामः तत्र एतादृशप्रश्नानाम् अवकाशः एव न भवति. यतोहि तत्र कः क्लेशः इत्युक्ते विसर्गः स्वयं न भवति संस्कृते. अत्र एकम् अन्यमेकं लघु प्रेसेण्टेशन् दर्शयितुम् इच्छामि, बिकास् देर् आर् मेनी पीपल् हु आर् कन्फ्यूस्ड् यस्य कारणं किम् अत्र विसर्गसन्धौ क्लेशस्य कारणं किम् इत्युक्ते विसर्गः स्वयं न भवति. सो इट् इस् नाट् अ सेल्फ् एक्सिस्टिङ्ग् लेटर् वर्ण. ओके, सो एतत् दर्शयामि. ये अवगन्तुं शक्नुवन्ति अवगच्छन्तु, यदि न अवगम्यते क्लेशः नास्ति. विसर्गः अस्ति. विसर्ग इस् अ डिरैव्ड् लेटर्. सर्वदा सः अन्यस्मात् वर्णात् एव उत्पद्यते. स्वयं विसर्गः नोत्पद्यते. सो तत्र विसर्गस्य उत्पत्तौ द्वेधा सम्भवः अस्ति. एकत्र रेफः भवति, अन्यत्र रुत्वम् इति भवति. श्रवणे उभयत्र रेफः एव श्रूयते, बट् टेक्निकली देर् इस् अ डिफ्रेन्स्. सो यथा दृष्टं पुनर्गिर् इत्यादिषु तत्र रेफः अस्ति अथवा ओरिजिनलि रुत्वम् अस्ति. स एव भेदः. सो तत्र ताभ्यां विसर्गस्य उत्पत्तिः भवति. बट् अत्र रु इति अस्ति, तदपि स्वयं न भवति. तत्र सकारः अस्ति. सो राम सु इति प्रत्ययः. सो ततः सूत्रमेकम् अवलम्ब्य रुत्वं भवति, ततः विसर्गः भवति. सो इदानीं यत् सन्धिः अस्य रेफस्य भिन्नानि कार्याणि भवन्ति, रोः भिन्नानि कार्याणि भवन्ति. वयम् उत्वं लोपः इति यद्यत् पठामः तत्सर्वं रोः एव कार्यम् इति उक्तमस्ति, केवलस्य रेफस्य न उक्तम्, अत एव एतानि कार्याणि अत्र न भवन्ति. सो दे आर् टू डिफरेण्ट् ब्राञ्चेस् टुगेदर् इन् द पाणिनियन् सिस्टम्. ओके, पुनः अत्र अधः यदा आगच्छामः विसर्गः अस्ति तस्य एवं सकारः भवति कुप्पो जिह्वामूलीय उपध्वनीयौ, विसर्गस्य विसर्ग एव भवति, सत्त्वं षत्वं नमस्करोति पुरस्करोति इत्यादिषु तद्भवति. सो तत्सर्वमपि भिन्नानि सूत्राणि सन्ति. सो सर्वेषाम् अवगमनं कदा भवति इत्युक्ते विसर्गात् पूर्वतनस्थितिं यदा वयं जानीमः तदा भवति, बट् इन् नार्मल् केसेस् एतत् न ज्ञायते. वि डोण्ट् हाव् एन् ऐडिया आफ् दिस् एण्टैर् सेक्षन्. ओके, अत एव वस्तुतः पाणिनीयप्रक्रियायां वाट् एवर् वि डू द रेफ इस् नाट् विसर्गसन्धि, इट् इस् बिफोर् विसर्ग, इट् इस् नाट् विसर्ग गेटिङ्ग् कन्वर्टेड् टु रेफ, रेफ इस् गेटिङ्ग् कन्वर्टेड् टु विसर्ग. सो इट् इस् द रिवर्स्, द actual process of derivation itself is different. So yada sutra kramena adhyayanam kurmaha tada kutra kim bhavati iti spashtam jnayate, atra tat na shakyate. So asmin stare na shakyate ityatah eva samanyatah yadasti tat sandhi rupena diyate. So agre bhavantah yada pathanti tada jnatum shaknuvanti. यदि इच्छा अस्ति अस्माकं पाठशालायामेव अधुना एव अष्टाध्यायी प्रवेशः इति कश्चित् वर्गः चलति, तत्र अष्टाध्यायी प्रवेशे एतत् सर्वम् अस्ति. वस्तुतः तत्र अधुना एव सः विसर्गसन्धिं समापितवान्. सो तत्र यदि पठितुमिच्छन्ति तत्र सः कार्यम् उक्त्वा तस्य सूत्राणि अपि उक्त्वा कथं भवति इति तिलकमहोदयः उक्तवान् अस्ति. सो अत्र तु शिक्षा स्तरे तस्य ज्ञानस्य सम्भवः नास्ति. सो तदर्थं यु नीड् सम् प्री रिक्वेसिट्स् आफ् अण्डर्स्टाण्डिङ्ग् द स्ट्रक्चर् अण्ड् द बेसिक्स् आफ् द अष्टाध्यायी. सो अस्मिन् स्तरे एतावत् ज्ञायते चेत् अट्लीस्ट् 80% प्रयोगाः ज्ञायन्ते, अतः एतावत् जानन्तु. अग्रे पुनः पठामः, तदा इतोपि सम्यक् ज्ञानं भविष्यति. कश्चित् अभ्यासः दत्तः आसीत् भगवद्गीतायाः 12th सन्धिविच्छेदः इति, तस्य पूर्णतः चर्चा अत्र वर्गे न क्रियते, यतोहि महान् समयः गच्छति तत्र. तत्तु सामान्यतः अन्यत्रापि लभ्यते छेदः, कुर्वन्तु अहमपि उत्तरपत्रं तत्र अप्लोड् करिष्यामि. तदनन्तरं विशिष्य केऽपि सन्देहाः सन्ति चेत् प्रष्टुमर्हन्ति, कुत्रापि श्लोके कश्चित् सन्देहः अस्ति चेत्, अन्यथा तत् दृष्ट्वा ज्ञातुं शक्नुवन्ति इति भावयामि. इदानीम् अग्रिम विषयं प्रविशामः. तत्र शिक्षास्तरे प्राधान्येन व्याकरणभागे विषयद्वयमस्ति, एकं तु सन्धयः, हल् सन्धिः व्यञ्जनसन्धिः इति एकः, अपरः अंशः शत्रु शानच् प्रत्ययौ. शत्रु शानच् प्रत्यययोः अध्ययनम् अस्ति, सविस्तरं सोदाहरणम् अध्ययनमस्ति. शत्रु शानच् इति प्रत्ययद्वयमपि कृत् प्रत्ययः इति उच्यते. कृदन्ताः, कृदन्तशब्दाः अत्यन्तं प्रमुखं भवन्ति संस्कृतवाङ्मय. संस्कृते किञ्चिदिव परिचयं ददामि कृदन्तानां विषये. सो संस्कृते तिङन्तं सुबन्तम् इति पदद्वयम् अस्ति. सो तिङन्तम् अथवा क्रियापदं, सुबन्तम् अथवा नामपदम् इति. तत्र धातुः भवति, यथा पठ इति धातुः प्रातिपदिकं भवति, राम इति प्रातिपदिकम्. सो धातोः तिङ् प्रत्ययस्य योजनेन तिङन्तरूपाणि भवन्ति, पठति पठतः पठन्ति, पठतु पठतात् पठतां पठन्तु, अपठत पठताम् अपठं, सर्वेषु लकारेषु यानि क्रियारूपाणि पठ्यन्ते ते सर्वेपि तिङ् प्रत्ययः, अत एव तिङन्तम् इति नाम। एवमेव प्रातिपदिकात् सुप् प्रत्ययानां योजनेन सुबन्तं भवति। रामः रामो रामाः, हरिः हरिहरयः इति यद्यत् सर्वं पठामः तत्सर्वमपि सुप् प्रत्ययः, विभक्तिरूपाणि निष्पाद्यन्ते। अत्र धातोः प्रातिपदिकस्य निर्माणे केचन प्रत्ययाः भवन्ति, ते प्रत्ययाः एव कृत् प्रत्ययाः इति कथ्यन्ते। सो कृत् प्रत्ययास् आर् दोर् विच् हेल्प् इन् जेनरेटिङ्ग् प्रातिपदिक फ्रम् धातु। सो कृत् प्रत्ययाः अत्यन्तं प्रधानाः। सो अमङ्ग् प्रातिपदिकस् अफ्कोर्स् लीविङ्ग् असैड् समासान् तद्धितान् विहाय, समासे किं भवति, द्वयोः सुबन्तयोः मेलनेन नूतनं प्रातिपदिकं भवति, तद्धितेपि सुबन्तात् पुनः प्रातिपदिकं भवति, यथा सीतायाः पतिः सीतापतिः, दशरथस्य पत्यं दाशरथिः इति। तद्विहाय, तादृशं विहाय यत् ओरिजिनल् प्रातिपदिकम् इति कथ्यते, तेषु महान् भागः कृत् प्रत्ययेभ्यः एव भवति। सो मोर् देन् 95% आफ् प्रातिपदिकास् आर् डिरैव्ड् फ्रम् कृत् डिरेक्ट्लि आर् इण्डिरेक्ट्लि, रैट्? सो अतः कृत् प्रत्ययाः बहु प्रमुखाः। सो कृत् प्रत्ययः सामान्यतः केचन प्रश्नाः भवन्ति, कृदन्तः वा सुबन्तः वा इति, सः प्रश्नः एव न कर्तव्यः। सर्वेपि कृदन्ताः सुबन्ताः एव भवन्ति, यतोहि धातुः अस्ति, धातोः कृत् प्रत्ययस्य योजनं कुर्मः, येन कृदन्तशब्दः भवति, सः कृदन्तः प्रातिपदिकं भवति। प्रातिपदिकस्य केवलस्य उपयोगः न क्रियते, वयं केवलं गिरि हरि इति शब्दानां प्रयोगं न कुर्मः। तेभ्यः प्रातिपदिकेभ्यः सुप् प्रत्ययस्य योजनेन सुबन्तम् अथवा नामपदं भवति। अतः सर्वेपि कृदन्ताः सुबन्तत्वेन एव प्रयुज्यन्ते। So the question whether a word is a kridanta or a subanta is not valid. If it is a kridanta, it has to be a subanta. Krit pratyayam kritva, the kridanta word is not ready to be used. So it is a root form. It forms a nominal root. It only generates the root word. Tebhyah supratyayanam yojanena eva subantaha bhavanti, subantanam eva prayogaha bhavati. So avyayani santi, avyayani api technically subantani eva. So avyayebhyah api supratyayasya yojanam kriyate, tasya lopaha kriyate, yena rupe bhedaha na bhavati. किन्तु अव्ययानि अपि सुबन्तानि एव, अतः कृदन्तः प्रातिपदिकम्, इट् इस् नाट् रेडि टु बि यूस्ड्, यु गेट् ओन्ली अ रूट् फार्म् एज़् अ कृदन्त, तस्य तत्र अव्ययं चेत् तथा एव उपयोगः भवति, इत्युक्ते सुप्रत्ययः न ज्ञायते। यदि अव्ययं नास्ति तर्हि सुबन्तानि एव, यथा गतवान् इत्यस्ति, गतवान् गतवन्तौ गतवन्तः इति विभक्तिरूपाणि सन्ति, एवं पठनम् इत्यस्ति, पठनं पठने पठनानि इति सुबन्तरूपाणि भवन्त्येव कृदन्तानाम्। एतत्तु कृदन्तानां बेसिक्स्। तत्र कृत् प्रत्ययेषु शत्र् शानच् इति प्रत्ययद्वयम् अस्ति। सो द जनरल् केरेक्टरिस्टिक्स् अत्रापि भवन्ति, धातुभ्यः शत्र् शानच् प्रत्ययौ योज्यन्ते, येन प्रातिपदिकं भवति, तस्य सुबन्तं कृत्वा वयं प्रयोगं कुर्मः। सो इदानीम् आदौ कानिचन उदाहरणानि पश्यामः शत्र् प्रत्ययस्य। सो बालः पठन् निद्रां कृतवान्। सो यदा सः पठति तदा एव निद्रां कृतवान् इत्यर्थः. अतः पठन् निद्रां कृतवान्. अशोकः गच्छन् धेनुं दृष्टवान्. सः गच्छति गमनकाले एव धेनुं पश्यति इत्यर्थः. सो उभयोः क्रिययोः समकालिकत्वं. सो बोत् एक्शन्स् हेपनिङ्ग् अट् द सेम् टैम्. लेखकः लिखन् एव गानं शृणोति. सः लिखति तस्मिन्नेव समये श्रवणकार्यम् अपि करोति. भक्तः देवं ध्यायन् प्रदक्षिणं कृतवान्. सो मनसि देवं ध्यायति तथैव पद्भ्यां मन्दिरस्य प्रदक्षिणं करोति इत्यर्थः. सः सङ्गीतं शृण्वन् दुःखं विस्मरति. सङ्गीतं शृणोति श्रवणकाले दुःखस्य विस्मरणं भवति. अतः दुःखं विस्मरति. सो एते शब्दाः शत्रु प्रत्ययान्ताः शब्दाः. सो तत्र किम् इत्युक्ते शत्रु प्रत्ययस्य अर्थः वर्तमानकालः कर्ता. सो पठन् इत्युक्ते कः पठन्? बालः पठन्. कः गच्छन्? अशोकः गच्छन्. सो कः लिखन्? लेखकः लिखन्. कः ध्यायन्? भक्तः वा देवः वा? भक्तः ध्यायन्. सो कः शृण्वन्? सः वा सङ्गीतं वा? सः शृण्वन्. सो कर्ता. सो कर्ता एव अर्थः. यः कार्यं करोति स एव शत्रुप्रत्ययान्तशब्देन उच्यते. वर्तमानकालः. वर्तमानकालः इत्युक्ते सा क्रिया आरब्धा न समाप्ता. सो यदा सः निद्रां कृतवान् पठनं समाप्य निद्रां न कृतवान्. सो पठनम् आरब्धवान् समाप्तेः पूर्वमेव निद्रां कृतवान्. गमनम् आरब्धवान् समाप्तेः पूर्वमेव धेनुं दृष्टवान् इत्यर्थः. सो सः अर्थः सामान्यतः प्रेसेण्ट् कण्टिन्यूस् इति यदुच्यते तदर्थे शत्रुप्रत्ययस्य प्रयोगः अस्ति. यद्यपि प्रेसेण्ट् कण्टिन्यूस् इति भेदः संस्कृते नास्ति. प्रेसेण्ट् वर्तमानकालः एव अस्ति. तथापि सामान्यप्रयोगः तथा. यस्मिन् काले सा द्वितीया क्रिया भवति तस्मिन्नेव काले इयमपि क्रिया भवति इत्यर्थः. तत्र परस्मैपदि धातुभ्यः शत्रु प्रत्ययः भवति. आत्मनेपदि धातुभ्यः शानच् प्रत्ययः भवति. उभयपदि धातुभ्यः उभयं भवति इति नियमः. धातुषु त्रयः प्रकाराः सन्ति. परस्मैपदिनः, आत्मनेपदिनः, उभयपदिनः इति. यथा पठति इति परस्मैपदी धातुः. ततः शत्रुप्रत्ययः पठन् भवति. वन्दते इति आत्मनेपदी धातुः. ततः शानच् प्रत्यये वन्दमानः इति भवति. यदि उभयपदी धातुः यथा पचति पचते इत्युभयमस्ति, अत्रापि पचन् पचमानः इति उभयं भवति इति नियमः. शत्र इति प्रत्ययस्य मूलं रूपं. वयं प्रयोगे शत्र इति न शृणुमः. अत् इत्येव श्रूयते. आदौ यः शकारः अन्ते यः ऋकारः सः प्रयोगे न श्रूयते. सो व्याकरणे तेषाम् इत् इति विशिष्टा संज्ञा अस्ति. अतः तेषां लोपः भवति. प्रयोगे अत् इत्येव श्रूयते. सो पठ अत् पठत्. वस्तुतः अत्र मध्ये अन्यः आकारः अस्ति. सो वद् अत् वदत् इति. एतत् किं भवति? प्रातिपदिकं भवति. सो धातोः कृत् प्रत्ययस्य योजनेन प्रातिपदिकं भवति. सो प्रातिपदिकस्य इदानीं पठत् इति तकारान्तशब्दः. सो तकारान्तः पुल्लिङ्गः पठत् शब्दः. पठन् पठन्तौ पठन्तः, पठन्तं पठन्तौ पठतः इति विभक्तिरूपाणि भवन्ति. सो अग्रे पश्यामः सर्वासु विभक्तिषु कथं रूपं भवति इति पश्यामः. सो पठत् वदत् इत्यादि प्रातिपदिकानि भवन्ति, तकारान्तानि प्रातिपदिकानि भवन्ति शत्रु प्रत्ययस्य योजनेन. तकारान्तं प्रातिपदिकम्. इदानीम् एकः लघु अभ्यासः, शत्रुप्रत्ययान्तः शत्रुप्रत्ययान्तं रूपं कथनीयम्. ये वक्तुम् इच्छन्ति हस्तम् उन्नयन्ति. शोभा भगिनी
पठति, पठन्
पठन् इति एकवचने पुल्लिङ्गे एकवचने रूपम्. सुधा श्रीकान्त
लिखति, लिखन्
लिखन् लिखति इत्यस्य लिखन् इति रूपम्. वयं ब्रह्म तिष्ठति,
तिष्ठति, तिष्ठन्
तिष्ठन् इति रूपम्. राव् वीरभद्रराव्
नृत्यन् नर्तन्
नृत्यन् इत्येव नृत्यति, नृत्यन् विजेषि
कथयति, कथयन्
कथयन् कथयति, कथयन्
कथयन्.
सो एते सर्वे सामान्यधातवः, रेग्युलर् वर्ब्स्. सो पठति, पठन् लिखति, लिखन् तिष्ठति, तिष्ठन् नृत्यति, नृत्यन् कथयति, कथयन्. सो विशिष्टधातवः केचन सन्ति, वाट् वि काल्ड् इरेग्युलर् धातु, तेषां कथं भवति रूपम्. यस् कर्तुम् अर्हति, यदि ज्ञायते वदन्तु. अस्ति
न ज्ञायते भगिनि.
अस्ति
आसन्
सन् इत्येव रूपम्. अस्ति सन् इति रूपम्.
सन् धन्यवादः.
करोति राजेश्वरी भगिनि. न श्रूयते.
करोति, करन्
कुर्वन् करोति, कुर्वन् इति भवति. कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः स्वामिना.
छिनति, छिन्न
छिन्द छिन्दन् इति भवति. चिन्ता मास्तु, एतानि विशिष्टानि. कथम् एतेषां रूपं जानीमः इत्यपि वदामि अग्रे एव. तदर्थमेव छिनत्ति इत्यस्य छिन्दन् इति भवति. सो ब्रवीति लता भगिनि.
ब्रवन्
ब्रुवन्
ब्रुवन्
ब्रुवन् इति भवति. हन्ति, सो एतत् वस्तुतः कठिनमेव, ये जानन्ति ते वदन्तु, अहं टैप् कृत्वा अपि प्रेषयितुं शक्नोमि. हन्ति कोऽपि जानाति वा? न जानीयात्, तत्र क्लेशः नास्ति न जानन्ति चेत्. हन्ति इत्यस्य घनन् इति रूपं भवति. कथं जानीमः अस्य रूपं? सामान्यधातुः चेत् सरलं भवति, एतादृशधातवः चेत् कथं जानीमः इति चेत् तत्रापि सरलः उपायः अस्ति. यदि अस्य रूपं लट्लकारस्य फस्ट् लैन् प्रथमरूपत्रयं जानीमः तत्र ज्ञायते. तत्र प्रथमपुरुष बहुवचनरूपं स्मर्तव्यं. सो पठति, पठतः, पठन्ति. सो तत्र इन्ति इति यदस्ति तन्निष्कास्य तकारं योजयामः अथवा नकारं पठत् पठन् योजयामः चेत् शत्रुप्रत्ययान्तरूपं भवति, द प्रातिपदिकं. सो लिखन्ति, लिखत्, नृत्यत्, चोरयत्, भवत्, नयत्, क्षिपत्. सामान्यधातवः क्लेशः नास्ति, अस्ति स्तः सन्ति सन्ति इत्यस्य सत् इति प्रातिपदिकम् अत एव सन् सन्तौ सन्तः हन्ति हतः घ्नन्ति सो बहुवचने घ्नन्ति अतः घ्नत् ददाति दत्तः ददति सो ददत् इति प्रातिपदिकम् करोति कुरुतः कुर्वन्ति कुर्वत् कुर्वन् इति भवति क्रीणाति क्रीणीतः क्रीणन्ति सो क्रीणत् क्रीणन् ब्रवीति ब्रूतः ब्रुवन्ति ब्रुवत् ब्रुवन् ब्रुवन्तौ ब्रुवन्तः एवं बहुवचनरूपे प्रथमपुरुषे बहुवचने यत् रूपं तत्र तत्र अन्तिमं भागं अन्ति अथवा ति तत् निष्कासयामः चेत् तेन शत्रुप्रत्ययान्तस्य प्रातिपदिकं सरलतया प्राप्तुं शक्यते तेनैव शक्यते अन्यथा अस्माकं भ्रमः भवति विशिष्टधातुषु सामान्यधातुषु न भवति किन्तु विशिष्टः यः धातुः तत्र क्लेशः भवति प्रथमपुरुष बहुवचनरूपं स्मर्तव्यं तावानेव नियमः इदानीम् अन्यः अभ्यासः सो पतति इत्यस्ति तस्य बहुवचनं किं शत्रुप्रत्ययान्तरूपम् एकवचनरूपं किम् इति वदामः यथा पतति पतन्ति पतन् सो अद्य तु सामान्यधातूनामेव कुर्मः अग्रे विशेषधातूनां कुर्मः सो अविनाश् वैद्य
क्रीडति क्रीडन्ति क्रीडन्
क्रीडन्ति क्रीडन्
नमति नमन्ति नमन्
नमन् नमन्ति नमन् भवति धन्यवादः ललिता
यस् धन्यवादः स्मरति स्मरन्ति स्मरन्
स्मरन्ति स्मरन्
कुप्यति कुप्यन्ति कुप्यन्
कुप्यन्ति कुप्यन्
दण्डयति दण्डयन्ति दण्डयन्
दण्डयन् सम्यक् धन्यवादः तत्र सामान्यधातूनामेव दत्तम् अहं गृहकार्ये केचन केषाञ्चन विशिष्टधातूनाम् एतत् ददामि तत्र क्रमः एवं बहुवचनरूपं लिखित्वा ततः शत्रुप्रत्ययान्तरूपं लेखनीयम् इति क्रमः यद्यपि एतेषु धातुषु साक्षात् वक्तुं शक्नुमः तं क्रमम् अनुसरामः चेत् कुत्रापि क्लेशः न भवति सर्वत्रापि वक्तुं शक्यते इदानीं कथं शत्रु प्रत्ययस्य उपयोगः क्रियते इति इतोपि किञ्चित् पश्यामः सो शिशुः धावति पतति सो शिशुः धावन् पतति यदा धावति तदा एव मध्ये पतति इत्यर्थः सो एवं शत्रुप्रत्ययान्तरूपम् उपयुज्य वाक्यानि योजनीयानि सो जॉइन द सेंटेंसेस रामनाथ
अनुजः आगच्छन् वदति
अनुजः आगच्छन् वदति सम्यक् नेकेपि वक्तुम् इच्छन्ति महालक्ष्मी
नमस्ते पिता पश्यन् पृच्छति
पिता पश्यन् पृच्छति सम्यक् अन्ये इन्दिरादेवी अन्म्यूटेड् यु हव् टु अन्म्यूट् योर् सेल्फ् to click on the microphone to mute yourself, unmute yourself. Aruna. You also have done.
Srinivasaha Gayan Nrityati.
Srinivasaha Gayan Nrityati. So, Indira Devi, you can try this one. You have unmute.
Krishnaha Chorayan Chintayati.
Samyak. Chorayan Chintayati. यथा चौर्यकार्यं करोति तस्मिन्नेव काले चिन्तयति चोरयन् चिन्तयति निर्मला
नमस्ते शिक्षकः पाठयति लिखति शिक्षकः पाठयन् लिखति
पाठयन् लिखति सम्यक् अन्य केपि दोस् यू हैवंट ट्राइड रामानुजन
राघवः जिग्रति तुष्यति राघवः जिग्रन् तुष्यति
जिग्रन् तुष्यति सो जिग्रति गंधम गृह्णाति इत्यर्थः टु स्मेल् सो जिघ्रन् तुष्यति सो गन्धं गृहीत्वा सन्तोषं प्राप्नोति तुष्यति सन्तोषम् अनुभवति इत्यर्थः अग्रे स्वामिनाथन्
राजकः शालयन् पश्यति
शालयन् पश्यति रजकः रजकः यः वस्त्राणि शुद्धं करोति धोबी इत्युच्यते वाशर्मन् सः क्षालयन् पश्यति यथा मया उक्तं सकारान्तः पुल्लिङ्गशब्दः भवति शत्रुप्रत्ययस्य योजना पुल्लिङ्गे सकारान्तः भवति इत्यर्थः सो पठत् शब्दः पठन् पठन्तौ पठन्तः गच्छत् शब्दः गच्छन् गच्छन्तौ गच्छन्तः स्मरत् शब्दः स्मरन् स्मरन्तौ स्मरन्तः क्रीडत् शब्दः क्रीडन् क्रीडन्तौ क्रीडन्तः हसत् शब्दः हसन् हसन्तौ हसन्तः सो पुल्लिङ्ग एकवचने पठन् गच्छन् स्मरन् क्रीडन् हसन् इति बहुवचने पठन्तः गच्छन्तः स्मरन्तः क्रीडन्तः हसन्तः इति रूपं भवति प्रथमाविभक्तौ इदानीं तु प्रथमाविभक्तिः सो अग्रे सर्वाणि विभक्तिरूपाणि पश्यामः उदाहरणं पश्यामः बालः पठन् लिखति छात्रौ पठन्तौ लिखतः सो लिखति लिखतः वयं पठन्तः लिखामः सो पठन्तः लिखामः पठन्तौ लिखतः पठन् लिखति सो अत्र शत्रुप्रत्यये पुरुषभेदः नास्ति सो सः पठन् लिखति त्वं पठन् लिखसि अहं पठन् लिखामि सो त्रिषु पुरुषेषु अपि समानं लिङ्गभेदः अस्ति अत्र पठति इत्यत्र तु सः पठति सा पठति तत् पठति क्रियापदे लिङ्गभेदः न भवति तिङन्ते कृदन्ते तु लिङ्गभेदः भवति सो सः बालः पठन् लिखति बालिका पठन्ती लिखति मित्रं पठत् लिखति लिङ्गभेदः अस्ति स एव भेदः नामपदे लिङ्गभेदः भवति क्रियापदे लिङ्गभेदः न भवति क्रियापदे पुरुषभेदः भवति नामपदे पुरुषभेदः नास्ति एतादृशेषु सो यद्यपि उभयम् अपि अस्माभिः क्रिया उभयं क्रिया एव तथापि केचन भेदाः सन्ति स्त्रीलिङ्गरूपाणि नपुंसकलुरूपाणि अग्रे पश्यामः अन्यविभक्तिरूपाणि अपि अग्रे पश्यामः यतोहि शिक्षा दश पुस्तकानि अथवा दश अध्यायाः सन्ति तत्र अष्टसु शत्रुशानस् इत्येव उक्तम् अतः बहु विस्तरेणैव दत्तमस्ति सर्वम् अग्रे ज्ञास्यामः इदानीम् एकवचनं ज्ञातवन्तः द्विवचनं बहुवचनं बहुवचनस्य प्रयोगः कथं क्रियते इति सो समानं व्याघ्राः हरिणं पश्यन्ति शीघ्रं धावन्ति शत्रुप्रत्ययान्तम् उपयुज्य वाक्ययोः योजनं कर्तव्यम्
व्याघ्राः हरिणं पश्यन्तः शीघ्रं धावन्ति
व्याघ्राः हरिणं पश्यन्तः शीघ्रं धावन्ति पश्यन्तः इति बहुवचनरूपं पश्यन् पश्यन्तौ पश्यन्तः व्याघ्रः हरिणं पश्यन् धावति व्याघ्राः हरिणं पश्यन्तः धावन्ति
नमस्ते अर्चकाः मन्त्रं वदन्तः अर्चनां कुर्वन्ति
सम्यक् सो अर्चकाः मन्त्रं वदन्तः अर्चनां कुर्वन्ति सम्यक् राव्
भैरवाः
जालरा
धीवराः राइट धीवराः जालं प्रसारयन्तः गीतं गायन्ति
सम्यक् धीवराः जालं प्रसारयन्तः गीतं गायन्ति धीवराः मत्स्यग्राहिणः फिशर्मेन् जालं मत्स्यान् ग्रहीतुं जालं प्रसारयन्ति स्प्रेड् देयर् नेट् तो जालं प्रसारयन्तः गायन्ति
बालकाः आसन्ते उपविशन्तः पुस्तकं स्वीकुर्वन्ति
आसन्दे उपविशन्तः पुस्तकं स्वीकुर्वन्ति अविनाश्
तरुणाः धनं सम्पादयन्ति आनन्दम् अनुभवन्ति तरुणाः धनं सम्पादयन्तः आनन्दम् अनुभवन्ति
सम्यक् सो धनं सम्पादयन्तः आनन्दम् अनुभवन्ति तरुणाः युवकाः धनं सम्पादयन्तः यदा धनं सम्पादयन्ति तदा तेषाम् आनन्दः भवति ललिता
अध्यापकाः पाठं बोधयन्ति प्रश्नं पृच्छन्ति अध्यापकाः पाठं बोधयन्तः प्रश्नं पृच्छन्ति
सम्यक्
बोधयन्तः
करेक्ट् करेक्ट् बोधयन्तः प्रश्नं
पृच्छन्ति धन्यवादः
सम्यक् बोधयन्तः प्रश्नं पृच्छन्ति सो अत्र भवतु सो शत्रुप्रत्ययस्य प्रारम्भिकस्तरे परिचयः प्राप्तः शत्रुप्रत्ययः कीदृशः कर्त्रर्थकः वर्तमानार्थकः भवति कृत् प्रत्ययः भवति धातुभ्यः शत्रुप्रत्ययः क्रियते तत्र अत् इति श्रूयते सो तकारान्तं प्रातिपदिकं भवति तस्य प्रथमाविभक्तौ पुल्लिङ्गे प्रथमाविभक्तौ किं रूपम् इति ज्ञातवन्तः. पठन् पठन्तौ पठन्तः, तस्योपयोगेन वाक्यानि अपि ज्ञातवन्तः. अग्रे अन्येषु लिङ्गेषु विशिष्टधातूनां रूपाणि कथं भवन्ति, सो तदपि अद्य किञ्चित् ज्ञातवन्तः. बहुवचनरूपं दृष्ट्वा तस्य शत्रुप्रत्ययान्तं प्रातिपदिकं ज्ञातव्यम् इति. अग्रे तस्य उपयोगं कुर्मः अन्येषु लिङ्गेषु अन्यासु विभक्तिषु कथं प्रयोगः इति पश्यामः. शत्रुप्रत्ययाः परस्मैपदिधातुभ्यः भवन्ति, शानच् प्रत्ययाः आत्मनेपदिधातुभ्यः भवन्ति. अग्रे काव्यांशेषु सुभाषितानाम् अध्ययनं. तदर्थितस्यापि धैर्यवृत्तेः न शक्यते धैर्यगुणः प्रमार्ष्टुम्, अधोमुखस्यापि कृतस्य वह्नेः नाथशिखायान्ति कदाचिदेव. वक्तुमिच्छन्ति कृपया हस्तम्.
नमस्ते. फस्ट् पदविच्छेदः तदर्थितस्य अपि हि धैर्यवृत्तेः न शक्यते धैर्यगुणः प्रमार्ष्टुम्, अधोमुखस्य अपि कृतस्य वह्नेः न अधः शिखाः यान्ति कदाचित् एव. सन्धि कदर्थितस्य अपि सवर्णदीर्घसन्धि, अत्र सवर्णदीर्घसन्धित्रयम् अस्ति. अधोमुखस्य अपि न अधः सवर्णदीर्घसन्धि अगेन्. शिखाः यान्ति विसर्गसन्धि लोपः. कदाचित् एव जस्त्वसन्धि.
सम्यक्. आम्,
वाक्यविश्लेषणं यहां क्रिया क्रियापदद्वयम् अस्ति. शक्यते यान्ति. प्रथमा विभक्ति धैर्यगुणः. शिखाः शिखाः आल्सो प्रथमा.
शिखाः इति अपि प्रथमा.
या then there are many avyayas. Api, hi, na, api again, na again, kadachi deva. Then pramashtum, tuman, tumananta avyaya. Shashti bhakti, kadardhitasya, dhairya vrittehe, adho mukhasya, krutasya, vahnehe.
Vahnehe,
okay. देन् अन्वयरचना न शक्यते. किं कर्तुं न शक्यते, प्रमार्ष्टुं न शक्यते. कः प्रमार्ष्टुं? धैर्यगुणः. कस्य धैर्यगुणः? धैर्यवृत्तेः. कीदृशः धैर्यवृत्तेः? तदर्थितस्यापि. The other one is next sentence. Na yanti. Kaha na yanti. Thinking that Shikha is stealing. Kasya Shikha. Vanhehe Shikhaha. Kutra na yanti. Adaha na yanti. Kim krutasya api na yanti. Adho mukasya krutasya api. I just tried out.
Then,
अन्वयं कदर्थितस्यापि धैर्यवृत्तेः धैर्यगुणः प्रमार्ष्टुं न शक्यते. अधोमुखस्य कृतस्य अपि वह्नेः शिखाः कदाचिदेव अधः न यान्ति. दिस् इस् अन्वयम्. व्याकरणांशाः क्रियापदद्वयम् अस्ति. शक्यते Is it shaklari? That's the dhatu. Atmanepadi, latlakaraha, pradhama purusha, ekavachanam.
Karmani.
Karmani. Oh, okay. Karmani latlakaraha. Okay. Thank you. Yanti. Ya, parasmaipadi, pradhama bahuvachanam. Kadardhitasya. Akarantah pumlingah shashti vibhakti ekavachana. Api na, all those avyayas are there. Pramastum tumunanta avyayam. Adha also. Then dhairya vrittehe akarantah pumlingah shashti ekavachana.
Ikarantah pumlingah. Dhairya vritti.
Vritti, oh, okay. Thank you. Ikarantaha, right. Dhairya gunha, akarantaha pumlingaha pradhama ekvachanam. Adho mukhasya, akarantaha pumlingaha shashti ekvachanam. Kritasya, akarantaha pumlingaha shashti ekvachanam. Vannehe, ikarantaha pumlingaha shashti ekvachanam. Shikaha, akarantaha, strilingaha, pradhama, bahuvachana.
Samyak.
Okay. I didn't try in Sanskrit, but in English, from what you wrote, the tatparyam. Just as the flame of a fire always looks upwards and never downwards, even if the fire is held downwards. The same way, the courage of a brave person cannot be undone, however much he is slighted.
Correct.
It's got it from books. Thank you.
Uttamam. Samyak. Swanmayaha samyagasit. Na shakyate. Na sambhavati. Kim na shakyate pramarshtum. Pramarshtum nashayitum. Vastutaha pramarjanam nama to wipe out ityarthaha. So nasharthe atra prayogaha. Nashayitum na shakyate. Kim nashayitum na shakyate. Dhairya gunaha. Dhairyam iti yaha gunaha. Dhairyam. So dhirasya bhavaha dhairyam. So dhrutihi. Ityapi uchyate. So dhrutihi nashayitum nashakyate. Kasya dhairya gunaha dhairya vrittehe. Yaha swabhavataha eva dhiraha. Yaha vastutaha dhiraha. Tasya dhairya gunaha. Nashayitum nashakyate. So kidrashasya dhairya vrittehe kadarthitasyapi. Kadarthitaha tiraskrataha ninditaha apamanitaha. So tadrishasyapi dhairya gunaha dhrutihi nashayitum nashakyate. Iti ekam vakyam. Tasya ekam udaharanam diyate. Shikaha na yanti. Na yanti na gacchanti. Kutra na yanti adhaha, adho mukhaha na gacchanti. Kaha shikhaha, shikhaha jvalaha. Kasya shikhaha vanhehe, agnehe jvalaha, adho mukhaha na gacchanti. Kada, kadachi deva, kadapi adhaha, adho mukhaha na gacchanti. Kidrishasya vanhehe, kritasya. Katham kritasya, adho mukhasya kritasya. So, adho mukhaha vanhihi, adho mukhaha kritaha chedapi, vanhehe jvalaha upari eva jvalanti. So, the flame always points upwards, even though you hold that, whether it's a matchstick or a candle or a lantern. So, fire, even you hold it upside down, it will always burn upwards. Tathaiva yadyapi kasyachit dhirasya damanam kartum prayatnaha kriyate, tathapi saha dhairyam na jahati, na tyajati, iti tatparyam. Tatra kepi prashnaha sanchite prichyantu vyakaranamshaha uktaha. So nadhaha, na adhaha, nadhaha, iti savarnadirka sanchite. Tumun kaha atra tumunnantaha pramarshtum. So, pra upasargaha marj dhatuhu, marjayati, टु वैफ् सो तस्य धातोः सुमुन्नन्तम् अव्ययम् प्रमार्ष्टुम् इति अन्यत् सर्वं ज्ञातं स्यात् केऽपि प्रश्नाः सन्ति वा अग्रिमं श्लोकं पश्यामः नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी गुणी च गुणरागी च विरलसरलो जनः इति अग्रिमः श्लोकः ये वक्तुमिच्छन्ति कृपया हस्तम् उन्नयन्तु ततः पूर्वं पूर्वतनश्लोके अन्यः एकः प्रश्नः प्रथमस्य पदस्य अर्थः नाम कदर्थितस्य कदर्थितः तिरस्कृतः निन्दितः इन्सल्टेड् आर् पुट् डौन् इत्यर्थः लता भगिनि
भगिनि ऐ रोट् ऐ डोण्ट् नो वेदर् इट् इस् रैट् पदच्छेदः न अगुणी गुणिनं न वेत्ति गुणी गुणिषु मत्सरी गुणी च गुणरागी च विरलः सरलः जनः न अगुणी सवर्णदीर्घसन्धि न अगुणी सरलः सरलो जनः सरलः जनः विसर्ग उकारः गुणः च गुणिनं प्लस् न दट् इस् अनुस्वारः गुणिनं वेति वाक्यविश्लेषणं क्रियापदं न वेत्ति भवति अध्याहृतम् ऐ रोट् इट् ऐ डोण्ट् नो वेदर् इट् इस् रैट् प्रथम अगुणी गुणी गुणरागी विरलः सरलः जनः मत्सरी एव्रिथिङ्ग् प्रथम द्वितीय गुणिनं सप्तमी गुणिषु अव्ययं न च अन्वयरचना न वेत्ति कः न वेत्ति अगुणी कं न वेत्ति गुणिनं भवति कः भवति गुणी भवति कीदृशः गुणी मत्सरी गुणी केषु मत्सरी गुणिषु मत्सरी पुनः कः भवति गुणी कीदृशः गुणी गुणरागी च और् पुनः कः भवति ऐ डोण्ट् नो वेदर् इट् इस् कीदृशः और् ऐ शुड् से कः फार् गुणरागी पुनः कीदृशः
ततः अत्र विरलः भवति कः विरलः भवति जनः कीदृशः जनः
कीदृशः सरलः जनः
पुनः कीदृशः गुणी च गुणरागी च सो तादृशः विरलः इति अन्वयः
ऐ रोट् समथिङ्ग् इन् संस्कृत ऐ डोण्ट् नो वेदर् इट् इस् रैट् दुष्टः गुणवन्तं न श्लाघते पुण्यपुरुषः अन्यान् पुण्यपुरुषात् असूयां भवति यः गुणवान् च गुणिनः प्रियं करोति सः दुर्लभः
सम्यगेव न किं प्रथमं किमुक्तं न श्लाघते इति न जानाति इत्येव अर्थः अत्र न जानाति
ते डु नाट् नो ओके व्याकरणांशः न अव्ययम् अगुणी नकारान्तशब्दं प्रथमविभक्ति पुल्लिङ्गं प्रथम एकवचनं गुणिनं नकारान्तः पुल्लिङ्गं द्वितीयविभक्ति एकवचनं वेत्ति लट्लकारं परस्मैपदी ऐ डोण्ट् नो द रूट् प्रथमपुरुषः
विद् धातु
वेद
अस्मादेव वेत्ति वेद ज्ञानम् इत्यर्थः.
प्रथमपुरुष एकवचनं. गुणी गुणरागी नकारान्तः पुल्लिङ्गः प्रथमविभक्ति एकवचनं. गुणिषु नकारान्तः पुल्लिङ्गः सप्तमी विभक्ति बहुवचनं. विरलः सरलः जनः अकारान्तः पुल्लिङ्गः एकवचनं प्रथमविभक्ति.
सम्यक् सम्यक् उत्तमं. सुमत्सरी इत्यपि नकारान्तः पुल्लिङ्गः प्रथम एकवचनं. सो गुणी मत्सरी गुणरागी. गुणः अस्य अस्ति इति गुणी. मत्सरः अस्य अस्ति इति मत्सरी. गुणेषु रागः इच्छा अस्य अस्ति इति गुणरागी. देर् आल् इन् अन्त. सो इन् इति अन्ते भवति. गुणिन् मत्सरिन् गुणरागिन् इति अर्थः तु अवगतः स्यात्. अगुणि न गुणः अगुणः यस्य सः. यस्मिन् स्वयं सद्गुणाः न सन्ति सः गुणिनं न वेत्ति. यस्य गुणाः सन्ति तं न जानात्येव. यः सर्वदा असत्यमेव वदति अन्यः सत्यं वदति सः तस्मादेव उत्तमः इति तु न जानाति. सो अगुणी गुणिनं न वेत्ति. गुणरहितः गुणवन्तं न जानाति न अभिजानाति. गुणी गुणिषु मत्सरी भवति. सो गुणी गुणिषु मत्सरी भवति. सो यस्य स्वयं गुणाः सन्ति सः अन्येषु गुणान् ज्ञातुं शक्नोति किन्तु ज्ञात्वा तस्य असूया भवति. सो अन्येभ्यः गुणिभ्यः सः असूयति. सो गुणी गुणिषु मत्सरी. सो विरलः जनः. जनः विरलः भवति. अत्यन्तं दुर्लभः भवति. कः? सरलः जनः. यः ऋजुः सरलः जनः. कीदृशः? गुणी च गुणरागी च. यः स्वयं सद्गुणान् सद्गुणवान् अन्येषां सद्गुणान् इच्छति न ईर्ष्यति तादृशः अत्यन्तं दुर्लभः इत्यर्थः. गुणी इति स्त्रीलिङ्गशब्दः वा इति प्रश्नः. स्त्रीलिङ्गशब्दः न. पुल्लिङ्गे प्रथमाविभक्तौ एकवचनं. गुणी गुणिनौ गुणिनः. मत्सरी मत्सरिणौ मत्सरिणः इति सर्वमपि पुल्लिङ्गशब्दः एव. सो केऽपि प्रश्नाः सन्ति वा अत्र? गुणरागी इत्यस्य अर्थः कः? गुणेषु रागः गुणरागः. रागः नाम इच्छा. ही हू अप्रिशियेट्स् द गुड् क्वालिटीस् इन् अदर्स्. सो सरलः इत्यस्य ईजि इत्यर्थः वा? न. सरल इस् स्ट्रेट्. ही हू इस् नाट् क्रुकेड्. सो ऋजुः अस्ति इत्युक्ते कथञ्चित् ओ अस्य गुणः नास्त्येव इति न. सो डिरेक्ट्लि हि केन् अप्रिशियेट् गुणरागी. सो सरला आल्सो मीन्स् सिम्पल्. सो हि हू इस् नाट् वेरि कन्सीटेड् तादृशः ऋजुः. विरलः दुर्लभः. रेर् विरलः रेर् मत्सरी इत्यस्य हेट् इत्यर्थः वा? हेट् न जेलस् असूया. यो तस्य एतावन्तः गुणाः इति असूया मत्सरः. मात्सर्यं मत्सरस्य भावः मात्सर्यं. सो मात्सर्यशब्दः मत्सरादेव. अग्रे गच्छामः. अग्रिमः श्लोकः. सत्यं तपो ज्ञानमहिंसतां च विद्वत्प्रणामं च सुशीलतां च एतानि यो धारयते स विद्वान् न केवलं यः पठते स विद्वान्. सुधा
शीघ्रं. दिस् इस् मै फस्ट् अटेम्प्ट् सो कैण्ड्लि पार्डन् मै मिस्टेक्.
the pada vibhaga is satyam. Tapaha is visarga ukara. Jnanam, ahinsata, cha, vidvat pranamam, cha, sushilatam, cha, etani, yaha visarga ukara, dharayate, saha visarga lopa, vidvan, na, atra, shastra, plus adhyayanam, that is savarna dirga, hi karanam.
Kim? Kevalam
shastra shastra adhyayanam. I broke it as shastra plus adhyayanam.
Pustake katha asti va mama etan madhye tu kevalam yah pathate vidvan.
That is the last line na tatra shastra adhyayanam karanam. I just took that also.
Chitta nasti na tatra shastra adhyayanam hi karanam.
Yeah, I took that one also and included it.
Okay, so it's a patantara variation on the last line.
Onda kevalam ya pathayate sa vidvan. Okay. I'll work with that.
You can tell whatever you prefer.
Okay, vakya visleshanam. Two kriyapadams. One is dharayate. And here it will be patate.
In this case, yeah, patate.
Prathama vibhakti yaha saha etani satyam tapaha jnanam ahimsatam vidvat pranamam sushilatam.
All these are?
In prathama vibhakti?
Dvitiya. Etani, satyam, tapaha, jnanam, all of
yaha saha, sorry. Yaha saha etani are in prathama. In dvitiya is, but satyam is actually napunsakalinga, no? It is defining yaha, the one who is satyam, right?
Yaha, satyam, tapaha, jnanam, ahimsatam, etani, dharayate. All of them are karmapadam. So, etani, satyam, tapaha, jnanam, ahimsatam, tatra spashtam yayat, ahimsatam, sushilatam, vidvat pranamam. So, okay. Sarvam vid dvitiya vibhakti.
Oh, okay.
Yaha, saha, vidvan, iti prathama vibhakti.
Etani is also not prathama.
No, dvitiya.
Oh, okay, I made a mistake there. Avyaya is cha. Three times. Na. In my testing, tatra was there because I took from the textbook. But, yeah. And he is also not here because it's a different line. Anvaya rachana, kriyapadam is dharayate. So, kaha dharayate, saha dharayate. Itrisha saha, vidvan saha. Will that be correct?
Dharayate saha vidvan iti anvayaha. So, yaha saha.
Okay.
Yaha dharayate saha vidvan.
Oh, okay.
He who has, he who holds these, he who acts on these virtues, that is a vidvan.
Vidvan
bhavati saha vidvan yaha dharayate.
Okay, so yaha dharayate, so then kidrisha yaha satyam
kim dharayate, what does he dharayate ityasya tra si dhriyante iti padamasti. So dhriyante is to exist, to sustain. He who makes them, he who sustains them is dharayate.
Right.
So what does he sustain? Kim dharayate?
Satyam tapaha. So there it will come as satyam tapaha jnanam Ahimsatam, Vidvat Pranamam, and Shashilatam. All the qualities will come for the Kim Dharayati. Kidrisha Kim.
Kim Dharayati. What does it, what is it that he has?
Okay. So then the second sentence, because I did it with that, it might be wrong.
What is this? Shastradhyayanam
hi karanam. So there I took
Shastradhyayanam hi karanam.
So there I took asti as adhyahritam, kriyapadam. And kaha asti karanam asti. Akidrisha karanam shastradhyayanam karanam. So then the anvaya was yo satyam tapah jnanam ahimsatam vidvat pranamam sushilatam cha dharayate saha vidvan tatra shastradhyayanam hi karanam na asti.
Satyam, samyak.
Okay. So then I think my vyakaranamsha also, the duty and the thing will go wrong. Satyam jnanam vidvat pranamam shastradhyayanam will be akaranta napunsaka dvitiya vibhakti ekavachanam, not prathama vibhakti.
Shastradhyayanam karanam nasti. So shastradhyayanam is pratham. All these are dvitiya.
All these are dvitiya. Yes. Tapaha is akaranta pullinga prathama vibhakti ekavachanam.
No. Patara pullinga dvitiya vibhakti ekavachanam. So tapas is like manas.
Yes.
Tapaha tapas. Okay.
Yes. Okay. Saha is dakaranta pullinga sarvanama tat shabda prathama vibhakti ekavachanam. Yaha is dakaranta pullinga sarvanama yad shabda prathama vibhakti ekavachanam. Ahimsatam and sushilatam, I couldn't understand the vyakranamsha, how to do. Vidwan dakaranta
pullinga ahimsata sushilata akaranta strilinga dvitiya vibhakti
ekavachanam. Okay. Vidwan is dakaranta pullinga prathama vibhakti ekavachanam.
Sakarantah vidvas shabdah sakarantah pullingah
prathama. Oh, it is not vidvat.
Vidvat na, vidvas shabdah.
Vidvas. Oh, okay. Yeah, so that was it. Sorry, lot of errors in it.
No, nothing. The main thing is to try. Yada prayatnah kriyate yada eva kutra jnayate kutra na jnayate iti vayam jani.
Yes. Thank you. Dhanyavad.
Tatra antima panktau patabhedah asti. This is the popular version. Prayah patyapustake. Natatra shastradhyayanam hi karanam. Asti. Tadeva svikurvantu. Asyapi tadeva tatparyam. Adhyayanam. Kevalam pathanena vidvan iti na kathyate. Etadrishaha eva shlokaha purvamapi drishtaha. Shastranyadhityapi bhavanti murkhaha. So atra na kevalam yah pathate ityatra atmane paraprayogaha arshaha. So arsha prayogaha bhavati tasmin pathantare na tatra shastradhyayanam hi karanam ityatra tu nasti tadarthameva saha pathaha svikrutaha syat. Because there is a pathate is a not a valid prayoga. If you make it pathati, chandobhangaha bhavati. Ataha natatra shastradhyayanam hi karanam ityeva svikurvantu. So tatra nama vidvattayam. Vidvatve shastradhyayanam eva karanam na bhavati. Kevalam shastranam adhyayanam kritam ityetadeva karanam hetuhu na bhavati. Tarhi kaha vidvan, saha vidvan. Kaha yaha dharayate. So dharayate iti nijantaha. Dhriyate iti धातुः यथा पठति पाठयति तथा ध्रियते इति धातुः तस्य निजन्ते धारयते इति निजन्ताः उभयपदिनः सो धारयति धारयते उभयं साधु तत्र क्लेशः नास्ति सो धारयते इति धृ धातोः निजन्तात् लट्लकारे प्रथमपुरुषे एकवचनं सो धारयते कः अर्थः ध्रियन्ते नाम दृढं तिष्ठन्ति सो दे ते स्टेडि सो ही हू मेक्स् देम् मेक्स् दीस् क्वालिटीस् रिमेन् स्टेड्फास्ट् ही हू होल्ड्स् देम् कान्सिस्टेण्ट्लि सः विद्वान् एतानि एतानि गुणविशेषाणि यः धारयते सर्वदा पालयति आचारे स्थापयति सः विद्वान् पण्डितः इति कथ्यते सो कानि धारयते सत्यं किं ऋतम् अथवा सत्यकथनं तपः ज्ञानम् अहिंसता विद्वत्प्रणामः विद्वत्प्रणामः विदुषां ये विद्वांसः तेषां पुरतः प्रणामकरणं विनम्रभावः ह्युमिलिटि इत्यर्थः सुशीलता उत्तमः उत्तमं शीलं नाम सदाचारः गुड् कोण्डक्ट् शीलम् इत्यर्थः सो एतान् षड् गुणान् सत्यं तपः ज्ञानम् अहिंसता विद्वत्प्रणामं सुशीलता एतानि यः धारयते सः विद्वान् तत्र शास्त्राध्ययनं न हि कारणं भवति इति अन्वयः अन्यत् किमपि प्रष्टव्यं वा सो एतत् प्रथमार्धे यदस्ति सर्वमपि द्वितीया विभक्तिः सत्यं तपः ज्ञानम् अहिंसतां विद्वत्प्रणामं सुशीलताम् एतानि सर्वमपि द्वितीया विभक्तिः सो सत्यं ज्ञानम् एतानि इति नपुंसकलिङ्गं तपः अकारान्तः नपुंसकः विद्वत्प्रणामः अकारान्तः पुल्लिङ्गः द्वितीया एकवचनम् अहिंसतां सुशीलताम् इत्यत्र आकारान्तः स्त्रीलिङ्गः द्वितीया एकवचनम् विद्वान् विद्वांसौ विद्वांसः सकारान्तः पुल्लिङ्गः विद्वत् शब्दः धारयते उक्तं शास्त्राध्ययनम् अकारान्तः नपुंसकलिङ्गः प्रथम एकवचनं कारणं तदपि समानं सो अत्र स्थापयामः अद्य गृहकार्यम् अग्रिमसप्ताहार्थं करेश्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्यावाणी विजयी भुजयोर्वीर्यमतुलं हृदि स्वच्छावृत्तिः श्रुतमधिगतं च श्रवणयोः विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदं मण्डनं नाम अलङ्कारः श्रेष्ठानां स्वभावतः ये श्रेष्ठाः तेषाम् अलङ्कारः ऐश्वर्येण विना अपि even without actual wealth they have this adornment or decoration kim kare tyagah so haste tyagah danam eva alankarah shirasi guru pada pranayita gurunam namanam kriyate itteva shirasah mastakasya alankarah mukhe satya vani satyavachanam eva mukhasya alankarah विजयी भुजयोर् वीर्यम् अतुलम् सो भुजयोः किम् अलङ्कारः वीर्यम् सो पराक्रमः भुजबलम् अलङ्कारः हृदि स्वच्छावृत्तिः हृदये निष्कापट्यम् सो तदेव अलङ्कारः श्रुतम् अधिगतं च श्रवणयोः कर्णयोः कः अलङ्कारः श्रुतम् अधिगतं यदध्ययनं कृतम् अवगतम् तदेव अलङ्कारः विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्दीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् वैराग्यशतकस्य श्लोकः वर्षशतं नृणाम् आयुः परिमितम् 100 इयर्स् इस् द लैफ् टैम् आफ् एन् इण्डिविजुवल् तदर्धं रात्रौ गतम् तस्य अर्धभागः नाम 50 वर्षाणि रात्रौ गतानि तदा कीदृशः समयः 6 to 6 वास् नैट् रैट् यदा सूर्यः अस्तं गच्छति अनन्तरं रात्रिः इदानीं तु वि हेव् 5 hours nights or 6 hours nights सनातनकाले तु रात्रिः सूर्यास्तमनानन्तरं सूर्योदयपर्यन्तं रात्रिः इत्येव अतः रात्रौ तदर्धं गतं तस्य अर्धस्य परस्य च अर्धम् अपरं बालत्ववृद्धत्वयोः सो 50 वर्षाणि शिष्टानि तत्र बालत्वं वृद्धत्वम् इत्यत्र अर्धम् अर्धं सो अ क्वार्टर् आफ् दट् इस् गान् इन् चैल्ड्हुड् एण्ड् ओल्ड् एज् वेर् यु केनाट् एक्चुलि अचीव् एनिथिङ्ग् ओके सो तत्र 25 years गान् शेषं यत् शिष्यते अतिन्यूनं व्याधिवियोगदुःखसहितं कदाचित् व्याधयः भवन्ति कदाचित् वियोगः दुःखं सेवादिभिर्नीयते कस्यचित् सेवा क्रियते इत्येवं जीवे वारितरङ्गचञ्चलतरे जीवनमेव वारितरङ्ग जलतरङ्गाः इव अत्यन्तं चञ्चलम् तत्र एतत् न भवति प्रतिष्ठा न भवति सौख्यं कुतः प्राणिना कुत्र वा सुखम् इति अस्ति तत्र वैराग्यशतके वैराग्यमेव परमं सुखम् इति प्रतिपादयति कविः अतः अन्यत् सर्वमपि दुःखमेव इत्यर्थः अद्य वयं शत्रुशानच्च इत्यत्र कृदन्तानां परिचयं प्राप्य शत्रुप्रत्ययस्य अर्थं ज्ञातवन्तः पुल्लिङ्गे प्रथमाविभक्तौ वचनत्रये रूपाणि ज्ञातवन्तः सुभाषितेषु सुभाषितत्रयस्य अध्ययनं कृतम् अग्रिमः वर्गः श्वः भविष्यति श्वः वयं शत्रुशानचोः अध्ययनम् अनुवर्तयामः गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरु तत्र कश्चित् प्रश्नः अस्ति धारयते पठते धारयते इति शुद्धं रूपं सो इट् इस् अ वेलिड् फार्म् बिकास् निजन्तस् आर् उभयपदिन् परस्मैपदे वा आत्मनेपदे वा प्रयोगः शक्यते शुद्धः प्रयोगः पठते इति तु शुद्धं न पठति इत्येव प्रयोगः कर्तव्यः पठते इति प्रयोगः अशुद्धः केन रचितः श्लोकः न ज्ञायते एतादृशम् आर्षप्रयोगः इति वदामः वस्तुतः पठते इति न प्रयोक्तव्यम् इत्येव अर्थः धारयते इति तु वक्तुं शक्यते शुद्धमेव रूपम्